एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री केपी शर्मा ओली भाषते विकासस्य स्थिरतायाश्च मार्गे अग्रे वर्धमानः वर्तमान सर्वकारः परिवर्तते इति प्रवादे कोऽपि आधारो नास्ति। ताप्लेजुङ जनपदस्य धुन्सास्थाने प्राप्तः प्रधानमन्त्री ओली ह्यः प्रतिवेशी देशद्वयेनैव सह सन्तुलित सम्बन्धम् संस्थाप्य राष्ट्रियायाः आवश्यकतायाः पक्षे सर्वकारः कार्यम् कुर्वाणोऽस्तीति अवोचत्। प्रधानमन्त्री ओली दुर्गम क्षेत्रस्य विकासाय सर्वकारेण प्राथमिकतया योजना चालिता वर्तते, ग्रामीण सम्भावनाया विशेष महत्वम् चास्तीति अचर्चयत्। प्रधानमन्त्री ओली धुन्सा प्रतिष्ठानेन सञ्चालितम् स्वास्थ्य शिविरम् उद्घाटयत्। ताप्लेजुङ जनपदस्यैव ओलाङचुङ गोलास्थाने विद्यमानम् सीमा सुरक्षा केन्द्रम् विमानेन निरीक्षत च। प्रधानमन्त्रिणा सह प्रथम प्रदेशस्य मुख्यमन्त्री शेरधन राई, संस्कृति पर्यटन नागरिक उड्डयन मन्त्री योगेश भट्टराई च सहभागिनौ आस्ताम्। कोरोना विषाणो संक्रमणस्य मध्ये अद्य आराष्ट्रम् द्वादश कक्षाया परीक्षा प्रारभमाणा वर्तते। स्वास्थ्य सुरक्षाया सर्वान् मापदण्डान् अवलम्ब्य परीक्षाम् इमाम् सञ्चालयितुम् पूर्वकार्यम् विहितम् अस्तीति शिक्षा विज्ञान प्रविधि मन्त्रालयस्य सचिवः गोपीनाथ मैनाली ज्ञापयति। कोरोना संक्रमणस्य कारणेन परीक्षायाम् सहभागितायै असमर्थानाम् परीक्षार्थिनाम् कृते अपरा परीक्षा सञ्चालयिष्यते इति सचिवः मैनाली अवोचत्। आराष्ट्रम् शास्त्र चतुष्टय पञ्चोत्तर शते च केन्द्रेषु परीक्षा सञ्चाल्यते। यस्याम् लक्षचतुष्टयम् द्वात्रिंशत् सहस्राणि पञ्चशतम् च परीक्षार्थिनः सहभागिनो भवन्तीति राष्ट्रिय परीक्षा समितिः ज्ञापयति। अत्रान्तरे शिक्षा विज्ञान प्रविधि मन्त्री गिरिराजमणि पोखरेलः कोरोना विषाणोः संक्रमणात् रक्षार्थम् स्वास्थ्य मापदण्डान् परिपाल्य परीक्षायाम् सहभागिनो भवितुम् परीक्षार्थिनः अनुरुणद्धि। द्वादश कक्षायाः परीक्षायाः विषये विद्यार्थिनः अभिभावकांश्च ह्य श्रव्यदृश्य प्रविधिर्माध्यमेन सम्बोधयन् मन्त्री पोखरेलः सविश्वासम् परीक्षाम् दातुम् अनुरुणत्। द्वादश कक्षा विद्यालय शिक्षायाः अन्तिम स्तरोस्तीति हेतोः परीक्षार्थिभिः प्राप्तायाः योग्यतायाः प्रमाणपत्रम् प्रष्टव्यम् न भवेत् इति उद्देश्येन सर्वकारेण परीक्षाम् सञ्चालयितुम् निर्णीतम् इति असौ अवदत्। प्रधान न्यायाधीशेन चोलेन्द्र शमशेर जबराभिधेन न्यायपालिकायाम् जनास्थायाः अभिवर्धनत्वेन कार्याणि विधातुम् न्यायपालिकायाः सर्वे कर्मचारिणः अनुरुद्धाः वर्तन्ते। न्यायपालिकायाः विभिन्न स्तरेषु न्यायालयेषु कार्यरतानाम् रजिष्ठार श्रेष्ठदार तहसीलदार पदीयानाम् कर्मचारिणाम् प्रथम राष्ट्रिय सम्मेलनम् उद्घाटयन् प्रधान न्यायाधीशः जबरा न्यायपालिकायाः संस्थागतोद्देशस्य प्रापणत्वेन न्यायपालिकायाम् जनास्थायाः अभिवर्धने सहयोग प्रापणत्वेन च कार्याणि कर्तुम् अनुरुणत्। सम्मेलने विधि न्याय संसदीय विषय मन्त्री डा शिवमाया तुम्बा हम्फे निर्णय क्रियान्वयनस्य विषयः जनापेक्षायाः अनुसारेण सम्भूतो नास्तीति जनानुवेदनस्य प्राप्तेः कारणात् न्यायिक सुधारस्य कार्यस्य संस्थागत विकासाय मन्त्रालयेन महत्वपूर्णा भूमिका निरूह्यते इति प्रतिबद्धताम् व्यक्तवती। संचार सूचना प्रविधि मन्त्री पार्वत गुरूङ सूचना प्रविधेः विकासाय आवश्यक पूर्वाधाराणाम् निर्माणे बलम् ददाति। सर्वकारीयतर संस्था महासंघ नेपालेन ह्यः काष्ठमण्डपे आयोजिते सार्वजनिक सर्वकार नागरिक सहकार्य विषयके संगणकीय विमर्शन कार्यक्रमे सर्वकारस्य प्रवक्ता च मन्त्री गुरूङ अगदत् शासकीय प्रणाल्यः जनताम् प्रति दायित्ववाहिन्यः उत्तरवाहिन्यः पारदर्शिन्याश्च सम्पादनत्वेन सूचना प्रविधेः विकासाय च पूर्वाधार निर्माणस्य कार्याणि प्राथमिकतायाम् संस्थाप्य अग्रे वर्धापनीयानि। नेपाली कांग्रेस दलस्य नेता प्रकाशमान सिंह कथयति कांग्रेस दलम् संसदि विपक्षी दलस्यैव भूमिकायाम् तिष्ठति। गतदिने काष्ठमण्डपस्य शंखमूल स्थाने सत्य साई बाबा उद्यानम् उद्घाटयन् नेता सिंह जनतया सम्प्रति कांग्रेस दलाय प्रतिपक्षे स्थातुम् नेकपा दलाय सत्ताम् सञ्चालयितुम् च जनादेशा प्रदत्तोस्तीति हेतोः स्वदलम् विपक्षैव तिष्ठतीति अतर्कयत्। अत्रान्तरे नेपाली कांग्रेस दलस्य सहमहामन्त्री डा प्रकाश शरण महत प्रधानमन्त्रिणम् केपी शर्मा ओलिनम् दल सभापतिम् शेरबहादुर देवाभिधम् च अन्तरा सम्पन्नम् मेलनम् सत्ता सहभागितायाः विषये नास्तीति स्पष्टीकरोति। कपिलवस्तु जनपदीयेन नेपाल प्रेस युनियन संघेन तौलिहवा स्थाने ह्य आयोजिते पत्रकार सम्मेलने सहमहामन्त्री डा महत अगदत् कांग्रेस दलम् सत्ता सहभागितायाः अभियाने नास्ति न ना सहभागिताया आवश्यकता वर्तते। नेपाले ह्यस्तनावधि कोरोना संक्रमणात् लक्षद्वयादपि अधिकाः जनाः मुक्ताः वर्तन्ते। संक्रमणात् ह्य अतिरिक्तैः सहस्रत्रयेण त्रयश्चत्वारिंशताश्च जनैः स्वास्थ्यलाभ प्राप्तेः अनन्तरम् नेपाले अद्यावधि कोरोना संक्रमणात् मुक्तानां जनानां समग्र संख्या लक्षद्वयं सप्तषष्ट्यधिक सहस्रद्वयञ्च प्राप्तेति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। ह्य अतिरिक्तेषु 680+ च जनेषु कोरोना संक्रमणं पुष्टिभूतं वर्तते। ह्य काष्ठमाण्डौ उपत्यकायाम् एव 70+ संक्रान्ताः जनाः वर्धिताः सन्ति। ह्यस्तन दिवसावधि नेपाले 88,484 कोरोना विषाणो सक्रिय संक्रान्ता जनाः वर्तन्ते। ह्य कोरोना संक्रमणेन अतिरिक्ताः 16 जनाः मृताः। नेपाले अद्यावधि कोरोना विषाणो संक्रमणेन मृता जनानां समग्र संख्या 637+ प्राप्तेति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। जुम्ला जनपदे जनपद विपद व्यवस्थापन समित्या सुविधा सम्पन्न कोविड चिकित्सालय निर्मास्यते। विपद व्यवस्थापन समिते अध्यक्षस्य प्रमुख जनपदाधिकारिणो भूपेन्द्र थापाविदस्य अध्यक्षतायाम् उपविष्टेन उपवेशेन एवं निर्णीतं वर्तते। भारतस्य विदेश सचिवः हर्षवर्धन श्रृंगाला अस्यैव मार्गमासस्य 11 दिवसे नेपालस्य द्विदिवसीय भ्रमणाय आगन्ता। परराष्ट्र सचिवस्य भरतराज पौड्यालस्य मैत्रीपूर्ण निमन्त्रणायां सचिव श्रृंगाला नेपालम् आगमिष्यमाणोस्तीति परराष्ट्र मन्त्रालयेन ह्य प्रकाशितायां विज्ञप्तौ ज्ञापितं वर्तते। देशद्वयस्य मध्ये उच्चस्तरीय भ्रमणस्य आदान प्रदानस्यैव नैरन्तर्यस्य क्रमे सम्पत्स्यमानस्य भारतीय विदेश सचिवस्य भ्रमणस्य प्रथमे दिवसे नेपाल भारत परराष्ट्र सचिव स्तरीया वार्ता भविष्यति। तत्र द्विपक्षीय सम्बन्धस्य सहयोगस्य च विविध विषया विमृक्ष्यन्ते इति राष्ट्र मन्त्रालय ज्ञापयति। भारतीय विदेश सचिव सिंगाला मार्गमासस्य 12 दिवसे नयाँ दिल्लीं प्रस्थाता। पूर्व पश्चिम राजमार्गस्य अन्तर्गते चितवनस्य राप्ती नगरपालिका षष्ठवडा क्षेत्रवर्तिनी हर्दिस्थाने गतसायं इन्धनवायिनः बुलेट यानस्य प्रहारात् मोटरसाइकल याने आरूढौ द्वौ जनौ मृतौ स्तः। भारतीय पञ्जीयनाङ्कयुतेन इन्धनवायिना बुलेट यानेन मोटरसाइकल यानं प्ररितं सत् मोटरसाइकल याने आरूढौ राप्ती नगरपालिकायाः पञ्चमवडा क्षेत्रस्य आसन्न 25-वर्षीयः नवराज दनै 31-वर्षीय सचिन दनै च मृतौ इति प्रहरी ज्ञापयति। बागलुङ जनपदस्य बडीगाड ग्रामपालिका षष्ठवडा क्षेत्रे जीपयानस्य दुर्घटनायां 11-वर्षीया बालिकया सहितं जनद्वयं मृतमस्ति इति समाचारः।